अध सूर्य सूक्तम् ओम नमो मित्रस्य वरुणस्य चक्षुषे महोदेवाय सद्रुतं सपर्यत दूरे दृशे देवजायत केतवे दिवस्पुत्राय सूर्याय संशत सामा सत्योक्तिः परिपातु विश्वतो द्यावाच यत्र ततननानि च विश्वमन्ययन विसते यदे जति विश्वामापो विश्वाहोदेति सूर्यः निते अदेवः प्रदिवो निवासते यदेतसोभिपरितैरधर्यसि प्राचीन्यमन्यदनुवर्तते रज उदन्येन ज्योतिषा यासि सूर्य येन सूर्या ज्योतिषा बाधसे तमो गच्छ विश्वमुदीयश्रीभानुना तेनास्मदिस्वा मुनिरामनाहुते मपामेवामपा दुःस्वप्नसुवा विश्वस्य हि प्रेषितो रक्षसे व्रतमहेलयन्नुच्छरसि स्वधा अनु यदद्यत्वा सूर्पा ब्रवामहे तं नो देवा अनुमंसैरतक्रतुं तन्नो द्यावा पृथिवी तन्न आपः इन्द्रः शृण्वन्तु मरुतोऽहं वचः मा सूने भामा सूर्यस्य संदृशि भद्रं जीवन्तो जरणामसीमहि विश्वाहा त्वा सुमनसः सुचक्षुषः प्रजावन्तो अनमेव अनागसः उद्यन्त्यं त्वा मित्रमहो दिवे दिवे जोग्जीवाः प्रतिपश्येम सूर्य महि ज्योतिर्बिभ्रतं त्वा विचक्षणभास्वन्तं चक्षुषे चक्षुषे मयः आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रतिपश्येम सूर्य यस्य ते विश्वाभुवनानि केतुवा प्रचेरते निच विशन्ते अक्तुभिः अनगास्त्वेन हरिकेश सूर्याह्नाह्नानो नस्य सावस्य सोदिः शन्नो भवचक्षुषा शम्नो हना शम्भानुना शंहिमा शम्धृषेण यथा शमसद्वश्चन्दुषे दूरोषे तत्सूर्यद्रविणं देहि चित्रं ॐ शान्तिश्चान्तिश्चान्तिः।